प्रदेवमच्छामधुमन्त इन्दवोऽशिष्यदन्तगापानधेनवाः बर्हिषदोऽवचनावन्त ऊधभिः परिसृतमुसृजा निर्णिजन्धिरे सरोरुवदभिपूर्वा अचक्रददुपारुहश्वथयन् स्वादते हरेः तिरः पवित्रम् बर्यन्नरुद्रजानुशर्याणि दधते देव आवरम् विजामेजम् व्या संयते मदः साकम् वृथा पयसा बिन्बदक्षिता मही अपारे रजसे विवेविदभिव्रजन्नक्षितम् बाज आददे समातरा विचरन् बाजयन् नपः प्रमेधिरस्वथजा बिन्वदे पदाम् अंशुर्यवेन विविशे जतानुभिः सञ्जामि भर्णसते रक्षते शिराः सन्दक्षेण मनसा जायते कविररतस्य गर्भो निहितो जमापरः योना हसन्ता प्रथमम् विजज्ञ दुर्गुहा हितम् जनिमने ममुद्यताम् मन्द्रस्य रूपम् विपितुर्मनीषिणः श्येनो जदन्धो अभरत्परावदाः तम् मर्जयन्त सुवृथम् नदीष्वाम् उषन्तमंशम् पर्यन्त मृग्मिजम् त्वाम् मृजन्ति दशयोषणः सुदम् सामर्षिभिर्मदिभिर्धेतिभिर्हिताम् अव्यावारेभिरुत देवहोदभिर्नभिर्यतो वाचमादर्शि सातये परिप्रयन्तम् वैयम् सुशंसदम् सामम् मनीषा अभ्यनोषतस्तुभाः योधारजामधुमाम् ओर्मिणा दिव इयर्तिवाचम् रजिषाणमर्त्यः अजम् दिव इयर्तिविश्वमारजः सोमः पुनानः कलशेषु सेदते अद्भिर्गोभिर्मृज्यते अद्रिभिः सुतः पुनान इन्दर्वरिवाविदत्प्रियाम् एवानः सोमपरिषिच्यमानोमयोदधच्चित्रदमम् भवस्व अद्वेषेद्या वा पृथिवेहुवे पदेवा धत्तरयिवस्मे सुवीरम्